ब्रहस्पते प्रथमं वाचो अग्रं यत्रैरदनामधे दन्दधानाः यदेषां श्रेष्ठं यदरिप्रमासे प्रेणाददेषां निहितं गुहाभिः सत्त्वमिपतित उना पुनन्तो यत्र धीरा मनसा वाचमग्रता अत्रा सखाजः सख्यानि जानते भद्रैषा अल्लक्ष्मेर्निहिताधिवाचे यज्ञेन वाचः पदवेजमाजन्तामन्वविन्दन् ऋषिषु प्रविष्टा तावाभृत्या व्यदधुः पुरत्रा ताम् सप्तरेभा अभिसन्नवन्दे उदत्तः पश्यन्न ददर्शवाचमुदत्तः शृण्वन्न शृणोत्येनाम् उदात्वस्मै तन्वा अम्बिसस्रे जाजे भवत्य उशते सुवासाः उत त्वम् सख्ये स्थिरपेतमाहुर्नैनम् हिन्वन्द्यपिवाजिनेषु अधेन्वाचरति वाजयैषवाचम् शश्रवाम् अभलामपुष्पाम् यस्तित्याज स च विदम् सखा जन्न तस्य वाच्यपि भागो अस्ति यदीम् शृणात्यलकम् शृणाति न हि प्रवेदसुहृदस्य बन्धा अक्षण्बन्धः कर्णबन्धः सखा जो मनो जपेश्वसमाबभूवः आदघ्ना स उपकक्षा स उत्पे ह्रदा इवस्तात्वा उत्पे ददृश्रे हृदा दष्टेष मनसो जपेषु यत्राम्हणा संयजन्ते सखायः अत्राह त्वम् विजहुरवेद्याभिरोह ब्रह्माणो विचरन्द्युत्वे इमे येनार्वाङ्गपरश्चरन्ति न ब्राह्मणासो न सुते करासः त एते वाचमभिपद्य पापया शिरेस्तन्त्रम् दन्वते अप्रजज्ञयः सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः किल्बिषस्प्रत्पितुषणिरह्येषामरम् हितो भवति वाचिनाय रचान्तः पोषमास्ते पुष्पान् गाजत्रन्वो गायति शक्परेषु ब्रह्मा त्वा वदति जातविद्याञ्जज्ञस्य मात्राम् विमिमेत उत्पहा